प्राकृत धर्मानाश्रय म प्राकृत निखिल धर्म रूपमिति निगम प्रतिपाद्यं यत् तच्छुद्धं साकृति स्तौमि कलिकालतमश्चन्न दृष्टित्वा द्विदुषामपि संप्रत्य विषयस्तस्य महात्म्यं समभूदभुवि दयया निज महात्म्यं करिष्यन् प्रकटन् हरिः वाण्या यदा तदा स्वास्यं प्रादुर्भूतं चकारहि
तदुक्तमपि दुर्बोधं सुबोधं स्याद्यथा तथा तन्नामाष्टोरतरशतं प्रवक्ष्याम्यखिलागवृत् ऋषिरग्निकुमारस्तु नाम्नां छन्दो जगत्यसौ श्रीकृष्णस्यं देवता च बीजं कारुणिक प्रभु
विनियोगो भक्तियोगः प्रतिबंध विनाशने कृष्णाधरामृतास्वाद सिद्धेरत्र न संशयः आनन्दः परमानन्दः श्रीकृष्णस्यं कृपानिधिः दैवोद्धार प्रयत्नात्मा स्मृते मात्रातिनाशनः
श्रीभागवत गूढार्थ प्रकाशन परायणः साकार ब्रह्मवादैक स्थापको वेदपारगः भक्तिमार्गब्जमार्तण्डः स्त्रीशूद्राद्युद्धृतीक्षमः
अङ्गीकृतयैव गोपीश वल्लभीकृतमानवः अङ्गीकृतौ समर्यादो महाकारुणिको विभुः अदेयदानदक्षश्च महोदारचरित्रवान् प्राकृतानुकृतिव्याज मोहितासुरमानुषः
वैश्वानरो वल्लभाख्य सद्रुपोहितकृत्सता जनशिक्षा कृते कृष्ण भक्तिकृन्नखिलेष्टदः सर्वलक्षणसम्पन्नः श्रीकृष्णज्ञानदो गुरुः स्वानन्दतुन्दिलपद्मा दलायत विलोचनः
कृपादृग्वृष्टिसंहृष्ट दासदासे प्रियः पतिः रोषदृक्पातसंप्लुष्ट भक्तद्वीड् भक्तसेवितः सुखसेव्यो दुराराध्यो दुर्लभान्द्रिसरोरुहः उग्रप्रतापो वाक्सीधु पूरिताशेषसेवकः
श्रीभागवत पीयूष समुद्रमथनक्षमः तत्सारभूतरासस्त्री भावपूरित विग्रह सान्निध्य मात्र दत्त श्री कृष्ण प्रेमा विमुक्तिदः रासलीलैक तात्पर्यः कृपयैतत् कथा प्रदः
विरहानुभवैकार्थ सर्वत्यागोपदेशकः भक्त्याचारोपदेष्टा च कर्म मार्ग प्रवर्तकः यागादौ भक्तिमार्गैक साधनत्वोपदेशकः पूर्णानन्दः पूर्णकामो वाक्पतिर्विबुधेश्वरः
कृष्णनामसहस्रस्य वक्ता भक्तपरायणः भक्त्याचारोपदेशार्थ नानावाक्यनिरूपकः स्वार्थोचिताखिल प्राण प्रियस्तादृशवेष्टितः स्वदा सार्थकृताशेष साधनः सर्वशक्तिधृक्
भुवि भक्ति प्रचारैक कृते स्वान्वयकृत्पिता स्ववंशे स्थापिता शेष स्वमहात्म्यः स्मयापः पतिव्रता पतिपार लौकिकैहिक दानकृत निगूढहृदयोऽनन्य भक्तेषु ज्ञापिताशयः
उपासनादिमार्गाति मुग्धमोहनिवारकः भक्तिमार्गे सर्वमार्ग वैलक्षण्यानुभूतिकृत् पृथक् शरणमार्गोपदेष्टा श्रीकृष्णहार्दवित् प्रतिक्षणनिकुञ्जस्थ लीलारससुपूरितः
तत्कथाक्षिप्तचित्तस्तत् द्विस्मृतान्यो व्रजप्रियः प्रियव्रजस्थितिः पुष्टि लीलाकर्तारः प्रियः भक्तेच्छापूरक सर्वा ज्ञातलीलोऽतिमोहनः सर्वासक्तो भक्तमात्रा सक्तः पतितपावनः
स्वयशोगान संहृष्टा हृदयाम्भोजविष्टरः यश पीयूषलहरी प्लावितान्य रस परः लीलामृतरसार्द्रात्री कृताखिल शरीरभृत् गोवर्धन स्थित्युत्साह तल्लीला प्रेम पूरितः
यज्ञभोक्ता यज्ञकर्ता चतुर्वर्ग विशारतः सत्यप्रतिज्ञस्त्रिगुणा तीतो नय विशारदः स्वकीर्ति वर्धनस्तत्व सूत्रभाष्य प्रदर्शकः मायावादाख्यतूलाग्नि ब्रह्मवाद निरूपकः
अप्राकृताखिला कल्पा भूषितः सहजस्मितः त्रिलोकी भूषणं भूमि भाग्यं सहज सुन्दरः आशीष भक्त संप्रार्थ्य चरणाब्ज रजोधनः इत्यानन्द निधे प्रोक्तं नाम्नाम् अष्टोत्तरं शतम्।
श्रद्धा विशुद्ध बुद्धिर्य पठत्यनुदिनं जनः सतदे कमनाः सिद्धि मुक्तां प्राप्नोत्यसंशयम्। तदप्राप्तो वृथा मोक्ष स्तदप्तौ तद्गतार्थता। अतः सर्वोत्तमं स्तोत्रं जप्यं कृष्णरसार्तिभिः। इति श्रीमदग्निकुमार प्रोक्तं श्रीसर्वोत्तम स्तोत्रं सम्पूर्णम्।